ஓம் சிவாய நம. டியர் லிசனர்ஸ் ஆஃப் சைவம் டாட் ஆர்க், தி நெக்ஸ்ட் ப்ரோக்ராம் இஸ் புராண பாராயணம். இன் திஸ் யூர் அபவுட் டு லிசன் தீபம் அன்னதானம் லிங்கம். தேங்க்யூ. ஓம் சிவாய நம.
தீபோத்சவ மகாத்மியம். கௌரி வாஜா. பகவன் சர்வ தர்மஜா கௌதமார்யா முனீஸ்வரா தீபோத்சவஸ்ய மகாத்மியம் ப்ரூஹிமே ஷோணபூபிருதஹ. கௌதம உவாஜ. ஷ்ருணு தேவி ப்ரவக்ஷ்யாமி சர்வ பாப ப்ரணாசனம் சர்வ சம்பத்கரம் நிரீணாம் ஆயுராரோக்ய வர்தனம் கார்த்திகே மாசி நக்ஷத்ரே க்ருத்திகாக்யே மஹாதபாஹ. மம ப்ரதக்ஷிணம் கௌரி ப்ரதோஷே ரஜயிஷ்யதி நராணாம் ஸ்வல்ப புண்யானாம் துர்லபம் தத் ப்ரதக்ஷிணம் ஜோதிர்லிங்கஸ்ய தீபேன ந புனர்ஜனனம் வி. ஏகதா மாம் சமாகத்ய பூஜயந்தி தபோதிகாஹ. சர்வ ஜன்ம க்ருதா கௌக ப்ராயஶ்சித்தம் வ்ரஜந்தி தே மண்டலம் மண்டலார்த்தம் வா அதவா ருத்ர சங்க்யயா தீபோத்சவ தினே வாபி கர்த்தவ்யம் விதி பூர்வகம். அஸ்வமேத சஹஸ்ரஸ்ய வ்யாப்னோதி விபுலம் ஃபலம் தத்ஃபலம் கோடி குணிதம் கார்த்திக்யாம் தீபதர்ஷனே கார்த்திகே மாசி சாயான்யே சிவாகாரே சுபப்ரதே. யோ தீபமர்ச்சயேத் பக்த்யா ததனந்த ஃபலப்ரதம் கோபுரத்வார சிகரே லிங்காக்ரே நகமஸ்தகே கார்த்திக்யாம் அர்ச்சயேத் தீபம் சர்வாகௌகைஹி ப்ரமுச்யதே. யக்குர்யாத் பக்தி பாவேன கார்த்திக்யாம் ஈஸ்வராலயே கவ்யேன வாத தைலேன புரதஹ பார்வதீபதேஹே பக்த்யா நாரங்க தைலேன தீபம் யஃ சம்பவே அர்ப்பயேத் ச தன்யஹ ஸர்வ தர்மஜ்ஞா ச தர்மாத்மான சம்சயஹ. யதி தைலாத்ய பாவேதோ கார்த்திக்யாம் க்ருத்திகாயுதே தீபம் ஐரண்ட தைலாத்வா யோர்ப்பயேத் சது புண்யபாக் மோஹேன வாத வாடம்பாத் பக்த்யா வா பார்வதீபதேஹே. தீபம் பஷ்யதி யோ பக்த்யா ச சிவ ப்ரியபாக் பவேத். தீபம் த்ருஷ்ட்வா து சாயான்யே யஃ கரோதி ப்ரதக்ஷிணம் பதே பதே அஸ்வமேதஸ்ய ஃபலம் ப்ராப்னோத்யசம்சயஹ. சர்வதானேஷு யத் புண்யம் சர்வதீர்த்தேஷு யத் ஃபலம் தத் ஃபலம் லபதே கௌரி தீபம் த்ருஷ்ட்வா து கார்த்திகே. ச தீப சிகரம் பஷ்யேத் ஷோணேஷஸ்ய மஹாத்மனஹ தஸ்ய புண்யஃபலம் வக்தும் நாலம் வர்ஷஷதைரபி. அத்ரைவ உதாஹரம் தீமம் இதிஹாஸம் புராதனம் ஶ்ருண்வதாம் சர்வ பாபக்னம் சர்வ மங்களதாயகம். புரா பாஞ்சால தேசே து ராஜா அபூத் தனதோ மகான் வஜ்ரசேன இதி ஖்யாதோ அபுத்ரோ ராஜசத்தம தத்ராகதோ த்விஜவரோ பைங்களோ முனிசத்தம. ஆகதம் தம் முனிம் த்ருஷ்ட்வா பூஜயாமாச பக்திதஹ ராஜானம் க்ளாந்தவதனம் அப்ரவீத் முனிசத்தம. கிமர்த்தம் சிந்தியசே ராஜன் சர்வபோகயுதோபிசன் ததோ வாஜமஹீபாலோ முனிம் சத்யவதோன்யுதம். முனே புத்ரவிஹீனோஸ்மி ததர்த்தம் தப்யதே மனஹ. ரிஷிருவாஜ கெச்ச ஷோணாஜலம் சீக்ரம் கார்த்திகே தீபதர்ஷனம் குருஷ்வராஜ ஷார்தூலா தவ புத்ரோ பவிஷ்யதி கார்த்திக்யாம் க்ருத்திகாயோகே ஷோணாத்ரீஷஸ்ய சந்நிதோ தீபேன புத்ர சந்தானம் பவிஷ்யதி ந சம்சயஹ. தஸ்யாபிதானம் சக்ரே அஸௌ பாலஸ்ய ப்ருதிவீபதிஹ சத்ருஜின்நாம புத்ரஸ்ய விப்ரான் சம்பூஜ்ய பக்திதஹ ததோ வ்ருத்திகதோ பாலோ ராஜபுத்ரோ விசக்ஷணஹ. சூரஸ்வரூபோ நிருபதேஹ தனயஹ ப்ராப்த யௌவனஹ வராங்கனாசு நிரதஹ பரஸ்த்ரீரதிலாலசஹ குருவிப்பஜனத்வேஷி ஜாதிசங்கரகாரகஹ நிந்தகோ நிஷ்டூரஹ பாபி கட்கபாணிர்துராக்ரஹஹ ரூபயௌவனசம்பன்னோ நானாலங்காரபூஷிதஹ பூர்வகர்ம விபாகேன காமசாஸ்த்ரேஷு லோலுபஹ. कस्यचिद्विप्रमुख्यस्य भार्या परमशोभना तनुमद्या विशालाक्षी बृहत्श्रोणी पयोधरा भृङ्गालगा पद्ममुखी सौन्दर्यस्मरविभ्रमा सराजतनयस्तादुं दृष्ट्वा सौन्दर्यतोषितः तं दृष्ट्वा सा तथा प्राप्ता तस्य रूपेण भामिनी सा मत्वा राजतनयं द्विजं हित्वा महानिशि तेन सारिदिमभ्येत्य संतुष्टा राजमन्दिरे रात्रिशेषं तया नीता पुनः पतिमुपागता तां ज्ञात्वा सद्विजकोपात् भार्यां दृष्ट्वा तु निन्दिताम् कार्तिके मासि सायाने पौर्णम्यां कृत्तिकायुते स च दीपोत्सवं द्रष्टुं राजपुत्रस्तया सह सा कुर्यान्वर्तिकां शुभ्रु चेलघण्डेन जारिणी स राजपुत्रो मोहेन ऐरण्डं तैलसंयुतं दीपं सा दीपपात्रे तु प्रज्वाल्या अतिप्रयत्नतः संस्थाप्य वेदिकायां च शोणाद्रे शुभजारिणी तत्र देवालये दिव्ये पुरतः पार्वतीपतेः कामशास्त्रकलापैश्च क्रीडां चक्रदुराधरात् आत्मानं दूषयित्वा तु शनेर्गत्वा तदालयं स्वपत्नीं राजतनयं तत्र दृष्ट्वा द्विजोत्तमः कपाडं सुस्थिरं बद्ध्वा खड्गमादाय वेगतः छिच्छेदराजतनयं तदो भार्यां शिवालये स राजसूनूरुत्थाय तथा तं निजघानः तयो विमरणं प्राप्ता शोणाद्रीशस्य सन्निधो तत्र शैवालये दिव्ये अन्योन्ये घातयो गतः त्रयस्ते दुर्मृतिं प्राप्ताः कार्तिक्याम् ईश्वरालये मोहात् कार्तिक्यपौर्णम्याद् इन्दुवारे शिवालये तदागदायमभडाः पाशहस्ता भयङ्कराः शिवदूतास्तदा जग्मुः रुद्रलोचनभूषिताः अध तां राजपुत्रं च विमाने संनिवेश्य च पादावाबद्धतं विप्रं यमदूता सुधारुणाः एवं भिन्नगदं दृष्ट्वा तानाः द्विजसत्तमः द्विज उवाच तावुभौ तुल्यपाप्मानौ कुलपौ राजपुत्रगौ अहं द्विजवरः पूज्यो गतिं भिन्ना बभूदिह शिवदूतास्तदः प्रोजुः ब्राह्मणं दीनमानसं मोहात् कार्तिक्यपौर्णम्याम् इन्दुवारे महोत्सवे एषा चादिदुराचारा चेलखण्डेन वर्तिकां चकार तेन पुण्येन सर्वपापक्षयो भवेत् अनेन दीपपात्रं च तैलम् ऐरण्डसम्भवं सर्वपापक्षयमभूत् पुण्याद्वा तैलपात्रयोः मनोवाकाय कर्मेश्च ज्ञानद्वाज्ञानतः कृतं तत्सर्वं विलयं यादि प्रदोषे दीपदर्शनाद् ज्ञानेन वाथवा मोहात् कार्तिक्यां शङ्करालये यो दीपशिखरं पश्येत् स धन्यः सर्वयोगिनाम् इति तं हृदिदं श्रुत्वा राजसूनुर्दयान्वितः पात्रे फलं प्रदास्यामि विप्रदुःखविमुक्तये एककालमृदानां च गतिरेका विशिष्यते इत्युक्त्वा प्रददौ पुण्यं कार्तिक्यां शिवसन्निधौ तेन पुण्यप्रभावेन समुक्तोऽयमपाशतः दिव्यं विमानमारुह्य ययौ शिवनिकेतनं ययुस्ते चाल्पदीपस्य पुण्येन शिवमन्दिरं तस्मात् सर्वप्रयत्नेन कार्तिक्यां दीपदर्शनं नाचरेद्यदि मूढात्मा रौरवं नरकं व्रजेत् ये नरो जन्म मध्ये तु दीपं भक्त्यावलोकयेत् न तस्य सन्ततेर्हानिर्न भूयस्तनभो भवेत् शोणाद्रे शिखरे दीपं ये पश्यन्ति नरा भुवि न मानुषास्ते विज्ञेया किन्तु रुद्रा न संशयः शोणाद्रिं यादियो मर्त्यो दीपं पश्यति चक्षुषा स धन्यः पावयन्त्यन्यान् स्वदृष्टिपथगोचरान् स्त्रियो वा पुरुषो वापि कार्तिक्यां दीपदर्शनं स्वशक्त्या चार्चये दीपम् द्रष्टव्यम् च प्रयत्नदः कामक्रोधम् भयम् लोभम् मोहम् द्रव्याभिमानताम् सन्त्यजेत् कार्तिके दीपम् द्रष्टव्यम् च प्रयत्नदः कार्तिक्याम् बिल्वपत्रेण विश्वव्यापिनमीश्वरम् यः पूजयेत् प्रदोषेतो न समुक्तो विजायते सहायम् कुरुते यस्तु दीपार्थम् शोणभूभृतः कर्मणा मनसा वाजा स स्वर्गफलमश्नुते न कुर्याद्यदि कार्तिक्याम् यो नरो निकटे स्थितः श्वानयोनिषदम् गत्वा चण्डालत्वम् स गच्छति गङ्गादि सर्वतीर्थेषु स्नानदानेषु यत्फलम् तत्फलम् समवाप्नोति कार्तिके दीपदर्शनात् इति श्रीस्कान्दे उपपुराणे क्षेत्रखण्डे श्री अरुणाचलमाहात्म्ये चतुस्त्रिंशोऽध्यायः अथ श्रीशोणाचलस्थले अन्नदानमाहात्म्यम् सनक उवाच भगवन् सकलाधार लोकानुग्रहकारक अन्नदानफलम् ब्रूहि शोणाचलमहास्थले ब्रह्मोवाच अन्नदानसमम् दानम् नास्ति लोकत्रये मुने अन्नदो प्राणदो नित्यम् अन्ने प्राणः प्रतिष्ठितः तस्मादन्नम् सदा देयम् आत्मलाभाय मानवैः यः करोत् अरुणक्षेत्रे सर्वकामफलप्रदम् अन्नदानात् स पुण्यात्मा सर्वसाम्राज्यमश्नुते तस्य पुण्यम् मया वेत्तुम् नालम् विष्णुमुखे सुरैः पुरा द्राविडदेशे तु सर्वसम्पत्समन्वते सिंहध्वज इति ख्यातो राजा सर्वाङ्गलक्षणः सूर्यवंश सुधासिन्तोः पूर्णचन्द्र इवापरः महारथो महेश्वासः पुण्यमूर्तिः सदा भुवि नित्यम् सुवर्णम् रजतम् मौक्तिकम् च प्रवालगम् वज्रवैडूर्यगोमेध पुष्यरागेन्द्र रत्नकः नागोपमम् सदा कृत्वा ब्राह्मणेभ्यो निवेदयत् अन्नदानम् विना सर्वदानम् तेन कृतम् सदा गदायुरन्दे देवेन्द्रसन्निधिम् गतवानभूत् तस्यात्मनो महावीरः सर्वलक्षणसंयुतः राज्यम् धर्मेण सकलम् ररक्षासा महीपतिः सिंहध्वजे गदे स्वर्गम् चित्रकेतुस्तदात्मजः चकार सर्वदानान्यम् अन्नदानम् विना मुहुः राजानम् वीक्ष्य पुण्यात्मा नारदो वाजमब्रवीत् राजन् भूम्याम् अन्नदानम् न कृतम् स्वात्मतृप्तये किमर्थम् वद सौम्यस्य सर्वदानाद्वरम् नृपा त्र्यम्बकस्य तुष्ट्यर्थम् अन्नदानम् प्रशस्यते स्वर्णरौप्यादिदानम् तु रत्नदानम् त्वया कृतम् गन्धकस्तूरिमाल्यादि भूषणादिविशेषतः दत्तम् ब्राह्मणमुख्येभ्यः पीताम्बरदुगूलकम् अन्नदानम् विना सर्वम् दानम् भूम्याम् कृतम् मुने नारद उवाच कर्मभूमिषु यद्धानम् स्वर्गे तत्फलमश्नुते अन्नदो मृदभो नित्यम् अन्नदो मृदभः कथम् भूम्याम् अन्नम् प्रदातव्यम् स्वर्गे त्वम् मृदमिच्छता राजोवाच किम् कर्तव्यम् मुनिःश्रेष्ठा भूम्याम् गन्तुम् न शक्यते अमृतम् मे कथम् लभ्यम् दयया वदसुव्रदा नारद उवाच मा भैषीस्त्वम् महाभाग गच्छामि धरणीतलम् कारयिष्यामि अन्नदानम् तव पुत्रेण धीमता इत्याश्वास्य नृभम् सम्यक् आनन्दरसनिर्भरः अवनीम् तु समागम्य चित्रकेतुम् ददर्शः चित्रकेतुस्तदा श्रेष्ठः नारदम् पर्यपूजयत् अर्घ्यम् वाद्यादिभिः सम्यक् गन्धपुष्पाक्षतैः सह चित्रकेतुम् समुन्वीक्ष्य नारदो वाक्यमब्रवीत् जनके तव राजेन्द्र स्वर्गम् प्राप्तेऽभि सन्ततम् न लब्धममृतम् तेन सदानन्दकरम् हितम् भूम्याम् अन्नः प्रदोयस्तु स सुधाम् भुजते ध्रुवम् सिंहध्वजेन पित्रा ते न कृतम् चा अन्नदानगम् तस्मात् कुरु महाभाग सुधालाभाय ते पितुः अन्नदानम् द्विजेभ्यस्तु సర్వదానఫలప్రదం ఏవముక్తశ్చిత్రకేతుర్ నారదేన మహాత్మనా అన్నదానే మదిం కృత్వా వజనం చేదమబ్రవీత్.
మునేస్త్వం సర్వధర్మజ్ఞ
సర్వలోకేషు పూజితః ఇదమేకం వద బ్రహ్మన్ మహ్యం నిస్సంశయం వజః. కస్మిన్ క్షేత్రే చ అన్నదానం అక్షయ్యం భవతి ధ్రువం. సర్వక్షేత్రేషు అన్నదాన ఫలం ప్రాప్నోది యత్ర చ. ఏకస్యాం చాతిథో దత్తం అన్నం కోడిగుణం భవేత్. నారదస్తు సముద్వీక్ష్య తత్సర్వం జ్ఞానచక్షుషా అన్నదానస్య యత్క్షేత్రం పాత్రం చాతిథిమేవ చ. వక్ష్యామి శృణురాజేంద్ర కర్మ భూమో విశేషతః.
లక్ష బ్రాహ్మణ ముఖ్యేభ్యో దత్తమన్నం సమృద్ధిమత. అన్యక్షేత్రేషు తత్కాశ్యాం ఏకస్మై న సమం భవేత. కాశ్యాం తు కోడి విప్రేభ్యో ఘృద భక్ష్యాది సంయుతం. భక్తిపూర్వేణ యద్దత్తం అన్నం సంపూర్ణమేవ చ. తదన్నమేక విప్రాయ శోణాద్రినగరే వరే దత్తే నాన్యేన సదృశం న భూమ్యాం భవతి ధ్రువం. ద్వాదశ్యాం తత్ర దాతవ్యమన్నం సోపస్కరాన్వితం. సంవత్సరాన్నదానేన శోణక్షేత్రే సమం భవేత్. ఇది శ్రుత్వా మునేర్వాక్యం సదా విస్మయకారకం. అరుణాద్రీశనగరం సంప్రాప్య నృపసత్తమః చిత్రకేతుర్మునిం నత్వా భక్తియుక్తేన చేదసా ప్రదక్షిణేన శోణాద్రిం పూజయామాసతోషయత. అన్నదానం ప్రతిదినం ద్వాదశ్యాం తు విశేషతః. కృతమాత్రేణ మాణిక్యపాత్రేష్వమృతముత్తమం. సమాదాయ తదా శక్రసింహధ్వజ నృపాయ చ. తదో సందుష్టచిత్తేన సపర్యా పూర్వమేవ చ. సింహధ్వజస్తు తృప్తః సన్ ముముదే చేంద్రసన్నిధౌ బహుమన్వందరం భోగాన్ భుక్త్వా పశ్చాత్ సనాదనం. బ్రహ్మలోకే తథా విష్ణోర్లోకే చ బహుమానితః. శివలోకమనుప్రాప్తో దదర్శ ప్రళయాన్ బహూన్. తస్మాదన్నం ప్రదాతవ్యం అరుణాద్రిస్థలే నరైః. సర్వాభీష్టఫలావాప్త్యై పుత్రమిత్రాది సంపతే. ఇదం మాహాత్మ్యమదులం సర్వపాపప్రణాశనం. స్వర్గాపవర్గదం నిత్యమాయుర్వృద్ధికరం నృణాం. ఇత్యేవం బ్రహ్మణా ప్రోక్తం అన్నదానఫలం మహత. సశృణ్వన్ సనగస్తత్ర పుళగాంజిత విగ్రహః. భూయః పప్రచ్చపితరం మాహాత్మ్యమరుణేషితుః. ఇది శ్రీ శైవే మహాపురాణే విద్యాసార సంహితాయాం శ్రీ అరుణాచల మహాత్మ్యే షట్రింశోధ్యాయః. శివార్పణం భవతు.
శ్రీ అరుణాచల లింగ ప్రామాణ్య వాక్యాని. లింగోద్భవ కాలః అండ్ లింగ లక్షణం. ఇన్ 1938 ది అథారిటీస్ ఆఫ్ శ్రీ అరుణాచలేశ్వర టెంపుల్ ఫైల్ ది లా సూట్ అగేన్స్ట్ ది గవర్నమెంట్ రిగార్డింగ్ ది ఓనర్షిప్ ఆఫ్ శ్రీ అరుణాచల హిల్ which was being claimed by the government as forestry department property. The temple authorities cited Bhagavan Sri Ramana Maharshi as a witness, and therefore on the May 8, 1938, the court sent a commission to hear Sri Bhagavan's evidence. This incident is mentioned in talk number 492 of Talks with Sri Ramana Maharshi, compiled by Managala Venkatramaya. For the benefit of the court, Sri Bhagavan selected some pages from the Skanda Mahapurana and the Shiva Mahapurana to prove that the Arunachala hill is itself a linga, the very embodiment of Lord Shiva. The Skanda Mahapuranam and the Shiva Mahapuranam are the two of the 18 principal Puranas, and as such they are recognized as works of great sanctity and authority. Therefore, when deciding an issue which concerns Hindu law, a court should abide by the authoritative statements made in these two works. In all, Bhagavan selected 56 lines from the Skanda Mahapuranam and 4 lines from the Shiva Mahapuranam, and he copied these lines in a notebook under the title Sri Arunachala Linga Pramanya Vakyani. On the basis of this evidence, the court decided that since the hill is itself a linga, it must be considered to be the property of the temple.
Linga Pramanya Vakyani, Sri Arunachala Mahatmyam, Skanda Mahapurane, Purvade, Prathama Adhyaya, Slok 9, Sanakah, Lingani Bhuvi Shaivani Divyani Cha Krupanidhe, Manushyani Cha Saiddhani Bhautani Suranayakah. 10. Yallingam Amalam Divyam Aparichedya Vaibhavam Swayam Bhujam Vave Dvipe Taijasam Tadvadasvame. 22. Brahma Suyatam Adbhutam Shaivam Avirbhutam Yathapura Avyajakarunapurnam Arunadravidamhah. Sloka 23. Aham Narayanaschaubhav Jato Vishwadhikodayar. Sloka 24. Svabhavena Samudbhutau Vivadantau Parasparam. Sloka 25. Parasparam Ranotsaham Avayo Atibhishanam Alokya Karunamurti Achintayat Atheshwarah. Sloka 31. Avayoho Yuddhato Madhye Vannishtambah Samudyatah. Adhyaya Dvitiyah. Vidhi Madhavo. Sloka 31. Upasamrutya Tejah Swam Arunachala Sangnaya Bhavasthavara Lingatvam Lokanugraha Karanat. Ishwarah. Sloka 50. Ishwarah Arunachala Rupena Pratah Stavara Lingatam. Sloka 51. Taijasam Lingam Etadi Sarva Lokaika Karanam Arunadri Iti Akhyatam Drashyate Vasudatale. Adhyaya Chaturtha. Sloka 37. Aham Hi Taijasam Rupam Ashtaya Vasudatale Vasani Cha Atra Siddhartam Arunachala Sannaya. Sloka 38. Runaddi Sarva Lokebhyah Parusham Papa Sanchayam Runana Vidyate Yasmin Drashte Tenarunachalah. Sloka 40. Madamsha Japayoho Purvam Yuddhatoho Brahma Krishnayoho Aham Moham Apahartum Tejo Rupo Vyavasthitah. Sloka 43. Prathitah Punatabhyam Arunachala Sangnaya Anaishi Taijasam Rupam Aham Stavara Lingatam. Sloka 24. Asya Chalasya Mahatmam Srotavyamcha Bhavan Mukhat. Gautamah. Sloka 42-43. Pura Brahmacha Vishnuscha Shiva Tejamsha Sambhavau Sahankaro Yuyudatuhu Parasvara Jigishaya Tatha Tayoho Garva Shanti Yogi Dhyayah Sadashivah. 43-44. Agni Tejo Mayam Rupam Adi Madhyanta Varjitam. Sloka 43-44. Agni Tejo Mayam Rupam Adi Madhyanta Varjitam Samprapyastau Tanmadye Disho Dasa Vibhasayan. Sloka 47. Tapratitascha Deveshu Yatah Stavara Lingatam Arunadri Iti Khyatah Prashantah Samprakashate. Ishwarah. Sloka 21. Arunachala Rupena Tishtami Vasudhatale. Sloka 22. Tadeva Taijasam Rupam Arunachala Sangnitam. Sloka 23. Tejomayam Idam Rupam Prashantam Loka Rakshanat Yad Agnimayam Avyaktam Apara Guna Vaibhavam. Sloka 9. Devaha Bhagavan Arunadesha Sarva Loka Hitavaha Agni Rupope Samshantaha Prakashasva Mahitale. Gautamaha. Sloka 5. Shanaihi Shanto Arunadeshaha Sriman Abhyartitaha Suraihi Loka Guptyartam Atyartam Upashanto Arunachalaha. Sloka 20. Drushyate Vasudha Bhagi Shonadri Iti Vishrutaha. Sloka 17. ಏಕಂ ಅದ್ರಿಮಯಂ ಲಿಂಗಂ ನ ಕ್ವಾಚಿತ್ ದೃಷ್ಟವಾನ್ ಭುವಿ. ಬ್ರಹ್ಮ ಶ್ಲೋಕ 43. ಅಯಂ ಸದಾಶಿವ ಸಾಕ್ಷಾತ್ ಅರುಣಾಚಲ ರೂಪತಃ ದೃಶ್ಯತೆ ಪರಮಂ ತೇಜಃ ಸರ್ಗ ಸಿತ್ಯಂತ್ಯಂತ ಕಾರಣಂ. ಶ್ಲೋಕ 44. ಏತತ್ತು ತೈಜಸಂ ಲಿಂಗ ಸರ್ವದೇವ ನಮಸ್ಕೃತಂ ದೃಶ್ಯತೆ ಕರ್ಮ ಭೂ ಏಷಾ ತೇನ ಧರ್ಮಾಧಿಕಾಮತ. ಶಿವ ಮಹಾಪುರಾಣೆ ಅಧ್ಯಾಯ 9. ಈಶ್ವರಃ ಅನಲಾಚಲ ಸಂಕಾಶಂ ಯದಿದಂ ಲಿಂಗಂ ಉತ್ಥಿತಂ ಅರುಣಾಚಲಂ ಇತ್ಯೇವ ತದಿದಂ ಖ್ಯಾತಿ ಏಷ್ಯತಿ. ಶ್ಲೋಕ 41. ಯದಿದಂ ನಿಷ್ಕಲಂ ಸ್ತಂಭಂ ಮಮ ಬ್ರಹ್ಮತ್ವ ಬೋಧಕಂ. 42. ಲಿಂಗಲಕ್ಷಣ ಯುಕ್ತತ್ವಾತ್ ಮಮ ಲಿಂಗಂ ಭವೇತ್ ಇದಂ. ಸ್ಕಂದ ಮಹಾಪುರಾಣೆ ಉತ್ತರಾರ್ಧೆ ನಂದಿಕೇಶ್ವರಃ ಅಧ್ಯಾಯ 4. ಶ್ಲೋಕ 12. ತತ್ರ ದೇವಃ ಸ್ವಯಂ ಶಂಭು ಪರ್ವತಾಕಾರ ತಾಂ ಗತಃ ಅರುಣಾಚಲ ಸಂಜ್ಞಾವಾನ್ ಅಸ್ತಿ ಲೋಕ ಹಿತಾವಹಃ. ಶ್ಲೋಕ 14. ಸುಮೇರು ಅಪಿ ಕೈಲಾಸಾದ್ ಅಪ್ಯಸೌ ಮಂದರಾದಪಿ ಮಾನನೀಯೋ ಮಹರ್ಷೇಣಾಂ ಯಃ ಸ್ವಯಂ ಪರಮೇಶ್ವರಃ. ಶ್ಲೋಕ 58. ಆರುಣಾದ್ವೇ ಸಮೋ ಮೇರು ನ ಕೈಲಾಸೋ ನ ಮಂದರಃ ತೇ ನಿವಾಸ ಗಿರಿ ವ್ಯಾಪ್ತ ಸ್ವಯಂ ತು ಗಿರಿಶ ಸ್ವಯಂ. ಅಧ್ಯಾಯ 16. ಶಿವಃ. ಶ್ಲೋಕ 27. ಶುಭಾಯ ತೈಜಸಿ ಮೂರ್ತಿ ಸ್ಥಾವರಾಯ ಮಮ ಶಾಶ್ವತಿ ಅರುಣಾದ್ರಿ ಇತಿ ಖ್ಯಾತ ನಿತ್ಯಮೇವಾತ್ರ ವರ್ತತಾಂ. ಗೌತಮಃ. ಶ್ಲೋಕ 21. ಅರುಣಾದ್ರಿ ಅಯಂ ಸಾಕ್ಷಾತ್ ಅನಲಾದ್ರಿ ತಿರೋಹಿತಃ ಶಿವರಹಸ್ಯೇ ಲಿಂಗಲಕ್ಷಣಂ. ಶ್ಲೋಕ 1-5. ಲಯನಾತ್ ಸರ್ವ ಜಗತಾಂ ಲಿಂಗಮಿತ್ಯುಚ್ಯತೆ ಶಿವೇ ಲೀನಂ ಅರ್ಥಂ ಗಮಯತಿ ತಸ್ಮಾತ್ ತತ್ ಲಿಂಗಂ ಉಚ್ಯತೆ ಲಮೂಪೀರಂ ಜಗತೋ ಗಚ್ಚತಿತ್ಯದೂಚ್ಯತೆ ತಸ್ಮಾತ್ ಲಿಂಗಂ ವಿದುಃ ಪ್ರಾಜ್ಞಾ ಲಿಂಗಹೀನಂ ಚ ತತ್ ಪ್ರಿಯೇ ಅರ್ಚಕಂ ಚ ವಿಶೇಷತಃ ಪೀಠ ಪೀಠ್ಯಾದಿರಹಿತಂ ಪೂಜ್ಯ ಪೂಜಾ ವಿವರ್ಜಿತಂ ಧ್ಯಾನ ಧ್ಯೇಯಾದಿರಹಿತಂ ನಿರ್ಗುಣಂ ತಮಸಃ ಪರಂ ಜಗತ್ ಜನ್ಮೋದಯಸ್ಥಾನ ವಿನಾಶನ ವಿವರ್ಜಿತಂ. ಶ್ಲೋಕ 5. ಕಾಲಾವಚ್ಛೇದಯುಕ್ತಾನ್ ವಿಧಿಹರ ಮುರವಿ ಚಕ್ರ ಸೂರ್ಯೇಂದು ವಾಯುನ್ ಸೃಷ್ಟ್ಯಾ ತೈ ಕ್ರೀಡತೀಶ ಜಗದುದರ ದುರೋ ಮಧ್ಯ ಪದ್ಮೈಕ ಸಂಸ್ಥ ನೀರೂಪೋ ವಿಶ್ವರೂಪ ಪ್ರಮಥ ಗಣವರೈ ವಿಶ್ವಕರ್ತ್ರ್ಯಾ ಜನನ್ಯ ಹೇರಂಬ ಸ್ಕಂದಯುಕ್ತೋ ಗುರು ಅಮರವರ ಪೂರ್ವತ ಪಾತು ನಿತ್ಯಂ.